सन्यस्तव्यमिदं समस्तमपि तत् कर्मैव मोक्षार्थिना सन्यस्ते सति तत्र काकिल कथा पुण्यस्य पापस्य वा सम्यक्त्वादिनिजस्वभावभवनान् मोक्षस्य हेतुर्भवन् नैष्कर्म्यप्रतिबद्धमुद्धतरसं ज्ञानं स्वयं धावति।